शुभ्रायातमश्विना स्वस्वागिरो दस्राजुषाणायुवाको हव्यानि च प्रतिभृता भीतम् नाः प्रवामुन्धाम् त्रिमध्यान्यस्तुलरम् गन्तम् हविषो भीतये मे यतो अर्यो हवानानि श्रुतम् नाः प्रवाम् रथो मनो जवायत्ति तिरोरजांसश्विना सरोजीः अस्मभ्यम् सूर्यावसूयानः अयम् भयद्वाम् देवया भुवद्रीरोध्वो विभक्तिसो वसुद्युवभ्याम् आल्गो विप्रावृदीतहव्यैः चिरितम् भयद्वाम् भोजनम् वस्तिन्यत्र ये महिष्वन्तम् विलोकम् यो वामोमानम् दधते प्रियः सन् उदत्यद्वाम् दुरते अश्विना भूत्यवाहनाय प्रतीत्यम् हविर्धे अधियद्वर्पयिलवोदिधत्तः उदत्यम् भुज्यमश्विना सखा यो मध्ये जहुर्देवादः समुद्रे निदेम्बर्णधरा वायो युवागोः मृगाय छिज्यसमानाय शक्तमुदश्रुतम् सजमे हूयमाना दाभग्न्यामबिन्वतमपो नस्तर्यम् जिच्छक्रश्विना सजीभिः येन स आरुजरते सूक्तैरग्रे बुधानपुटसाम् सुमन्माः इषादम् वर्धदज्ञापयोभिर्यूयम् पात स्वस्तिभिः सदा नः आवाम् रसोरोदसी मद्वधानो हिरण्ययो वृषभिर्जात्वस्वैः घृतवर्तनिः पविभिर्जानयिषाम् बोढा नृपतिर्वाजिनीवान् सर्वप्रधानो अभिमन्त्रभूमा त्रिमन्त्रो मनसा जातुयुक्तः विशोदे न गच्छथो देवयन्तीः पुत्रा चिद्याममश्विना दधाना स्वस्वा यशसायातमर्वाग्रस्रा निधिम् मधुमन्तम् पिबातः विभाम्रसो बद्ध्वा आयादमानोऽन्तान् दिवो बाधते वर्तनिभ्या युवाश्रियम् परियोषा वृणीतसूरो दुहिता परीतज्ञायाम् यद्दे भयन्तमवधस्वजीः परिघ्रन्तमो मना वाम्बयोगात् यो हस्य वाम् रधिरावस्तभुस्रारथो युगानः परिजाति वर्तिः तेन नश्वञ्जोरुढसोऽव्योष्टौ न्यश्विना वहतम् यज्ञे अस्मिन् नरा गौरेव विद्युतम् दृढानास्माकमद्यसमनोपजातम् रुद्राहिवाम् मतिभिर्हवन्ते मन्ये नियमन्दे भयन्ताः युवम् भुज्यमवविद्धम् समुद्रबुदोहधुरर्नासो अश्रीधानैः अतद्रिभिरश्रमैरव्यतिभिर्दंसनाभिरश्विना पालयन्ता नो मेहवमाशृणतम् युवानायाधिष्टम् भक्तिरश्विनाभिरावत् धत्तम् रत्नानिगरतम् च सूरीन् यूयम् पात स्वस्तिभिः सदा नः आविश्ववाराश्विनागरम् नः प्रतस्थानमवाजिवाम् पृथिव्याम् अशो न बाजीषु न पृष्ट्वादायत्ते ध्रुवदेनयोनिम् शिषक्तिसावाम् सुमनिश्च निष्ठाताभि घर्मो मनोजो द्रोणे यो वाम् समुद्रान् सरिदपि भर्ते तग्बाचिन्न सुयुदायुगानः निस्थानान्यश्विना दधाते दिवो जह्वीष्वोषाधीषु भिक्षु निपर्वतस्य मूर्धनिधरम् ते सञ्जनाय दाधुषेवहम् च निष्टम् देवावोषाधीष्वप्सु यद्योग्या पुरो निरत्रादतौ या अस्मे अनुपूर्वाणि चक्षुर्युगानि सुषुभांसादिदस्विना पुरोन्नभिब्रह्माणि चक्षाधे ऋषीणाम् प्रजातम् परमाजनायास्मे वा वस्तु सुमतिश्च निष्ठा यो वाञ्जज्ञो ना सत्याह विष्मान् कृतब्रह्मादमजो ओ भवादि उपप्रजातम् परमावसिष्ठविमा ब्रह्माण्डिरिच्यन्ते युवभ्याम् यम् मनीषा यमश्विनागीरिमांसो वृत्तिम् रेषणायुषेताम् इमा ब्रह्माणि युवयोर्न्यग्मञ्जूयम् पात स्वस्ति सदा नः नपस्वसुरो न जीहीते ऋणक्ति कृष्णेरारुराजपन्था अश्वामघागो मघावाम्बुवे मदिवानक्रम् सर्वमस्मद्यूयोतम् उपायानम् दाजुषे मत्या जलसेन वाममश्विनामहम् यजुतमस्मदनी राममी वाम् दिवानक्रम् माध्वीत्रासीताम् नः आवाम्दशमवस्याम् ज्योष्टौ सुम्नायवो मृषणो वर्तयन्तु स्योमागवस्ति मृतयुग्भिरश्वीनापसुमन्त्रम् वहेथाम् सोवाम्दशोपति अस्ति बोधात्रिवसुमा आनयेनाना सत्योपजातमभियद्वाम् विश्वस्योजिगादि युपञ्च्यमानमञ्जरसो मुमुक्तम् निवेदवभूभधुरासुमस्वम् निरङ्गसस्तमतस्पर्तमद्रिम्भुरम् श्रीधिरेधातमन्तः इयम् मनीषा इयमश्विनागीरिमांसु वृत्तिम् रेषणायुषेथाम् इमा ब्रह्माणि युवयोर्नग्मञ्जूयम् पात स्वस्तिभिस्सदा नः आगोमतानादत्यारथेनाश्वावदा पुरुश्चन्द्रेण जातम् अभिवाम् विश्वानियुतः सजन्ते स्वार्गया सुजातन्वा शुभाना आनो देवेभिरुपजातपर्वात्सजोषसाना सत्यारथेन युवो निरः सख्या विद्यानि समानो बन्धूनुतकस्य वित्तम् उदस्तोमासो अश्विनोरभुद्रञ्जामिब्रह्माण्डस्य देवीः आविवासन् रोदसीधे मे अच्छाविप्रो न सत्या विभक्ति विचेदच्छन्द शिराभुराधः प्रभाम् ब्रह्माणि कारबोधरम् ते ऊर्ध्वम् भानुम् सविता देवो अश्रे बृहदग्नजः सविधा जरन्ते आपश्चादान्ना सत्या पुरस्तादाश्विनायातमधरादुदक्तात् आविश्वतः पाञ्चजन्येन राजारूयम् पात स्वस्तिभिस्तदा नः अचारे परमस्पारमस्य प्रतिस्तोमम् देवयन्तो दधानाः पुरुदम् सा पुरुतमा पुराजामर्त्या हवते अश्विनागीः न्यप्रियो मनोषः सा विभोताना सत्यायो यजते मन्दते च अस्मीतम् मध्वो अश्विना उपाकाम्बोचे विदधे ऋत्रयस्वान् अयेव यज्ञम् पथामो राणा इमाम् सो वृक्तिम् रेषणायुषेथाम् सृष्टिवे वक्षेषितो वामबोधे प्रतिस्तो वैर्जरमानोपदृष्टः उपत्यावह्नीगमतो विधम् नारक्षोहणा संभृता वेणुपाणि समन्धाम् जग्मतमत्सरानिमानोऽध्यक्षमागतम् शिवेन आपश्चादान्नासत्या पुरस्तादाश्विनायातमधरादुदत्तात् आदिशदः पाञ्चजन्येन राजा यूयम् पात स्वस्तिभिस्तदानः इमा भूपाम् दिविष्टय उस्राः वन्दे अश्विना अयम् वामत्वे वासे सजीवसूविषम् विषम् हि गच्छतः इमम् चित्रम् ददधुर्भोजनम् नराचोदेताम् सूनृतावते अर्वाग्रथम् समानसा नियच्छतम् पिबतम् सौम्यम् मधु आयातमुपभूषतम् मध्वः पिबतमश्विना दुग्धम् पयो वृषकाजेन्यावसूमानो मध्यष्टमागतम् अश्वासोजे वामुपराधुतो गृहम् युवाम् दीयम् दीर्घरा क्षोजभिर्नराहयेभिरश्विना देवाजातमस्मयु अधारजन्तो अश्विना वृक्षसरन्दसूरयाः कायम् सतो भगवद्भ्यो ध्रुवम् यसच्छर्दिरस्मभ्यम् नासत्या प्रये यजुरृकासो रथा यिवर्पाता रोजनानाम् उदस्वेन समदासूषु पुर्नर उदक्षीयन्ति सुक्षीणिम् यो भोजि विचारतेनाविष्कृण्वारामहिमानमागात् अपद्रुकस्तमावरदृष्टमङ्गीरस्तमापत्याजीगः महेनो अद्य सूभिराज बोद्धुडो महे सौभगायप्रयन्धि चित्रम् विरयम् यशसम् धेह्यस्ते देविवत्तेषु मानुविश्रभस्यम् एतेत्ये भानवो दर्शदाजाश्चित्रा उषसो अमृता सागुः जनयन्तो दैव्यानि प्रधान्या पृणन्तो अन्तरिक्षाव्यरस्तुः एतास्यायुजानापरागात् पञ्चक्षितेर्परि सद्यो जीगाति अभिपश्यन्ति मयुना जनानाम् दिवो दुहिताभुपरस्य पत्नी वाजिदेवती सूर्यस्य योडाचित्रामघाराजयी सेवसूनाम् निषिष्टुता जनयन्ति मघोर्जुरावृच्छति वह्निभिर्गृणाना प्रतिद्युता नाम ऋषासो अश्वास्तित्रा दृश्रम् नृषसम्पहन्तः जाति शुभ्रा विश्वविशारथे न दधा दिरत्नम् विधते जनाय सत्या सत्येभिर्महति महद्भिर्देवी देवेभिर्यजता यजत्रैः रुजदृढा निगदुश्रियाणाम् प्रतिकामपुषसम् वावसन्त नो नो गोमद्वीरबद्धे हिरत्नमुषो अश्वावत्पुरुभोरो अस्मे मानोऽबर्हिः पूरुषदा निलेकर्यूयम् पात स्वस्तिभिस्तदानः उदज्योतिरमृतम् विश्वजन्यम् विश्वानस्त पिता देवो अश्रेर् कृत्वा देवानामजनिष्टचक्षुराविरगर्भुवनम् विश्वमृधाः क्रमे पन्था देवजाना अदृश्रन्नवर्धन्तो वसुभिरिष्कृतासः अभूजुगेतुर्णतपुरस्तादधीत्यागादधीहन्येभ्यः तानीतहानि बहुलान्या सञ्ज्ञा प्राचीनमुदिता सूर्यस्य ततः परिचारजीवाचरञ्जुषो ददृक्षेण पुनर्यदीव तजिद्देवानाम् दधमाद आसन् मृदाभारः क्रमजः पूर्जासाः गूढम् ज्योतिः पितरो अन्वविन्दन् सत्यमन्त्राजनयन्नुषासम् समानपूर्वे अधिसङ्गदासन्दानतेन जातन्ते मिथस्ते ते देवानाम् नवीनन्ति व्रतान्यवर्धन्तो वसुभिर्जायमानाः प्रजित्वा सोमैरेण देवतिष्ठा बृहद्बुधस्तु भगे दुष्टुवांसाः గవాత్రీ వాజపత్న భూక్షోడస్సు జాతేస్వ ఏషా నేత్రీ రాధసూమృతాముచ్చేభ్య దేవతిష్టైర్ఘసురం రజిమస్మే దానాయూజం పాత స్వస్తి విశ్వదాన ఉపోరుతేయువరయన్మయోషాదిష్మీవనమ్రీజరాజీ అభూరగ్నిస్వమిధేమానుషా నామ గర్జోదర్బాధమానాకమాంసి విశ్వం ప్రదీతిస్థాదృశద్వాసో బిభ్రతి శుక్రమస్వైత్ హిరణ్యవర్ణాశృతీగతం భగవాం మాతా నేత్యన్నామరోజి దేవానాం చక్షుస్సుభగావహంతి శ్వేతం నయంతి సుశృతీకమస్వం ఉషాదర్శరత్నభిర్యక్తామఘామిస్వమనుప్రభూతా అంతీ వామాధూరే అమిత్రముచ్చోర్వీం గవ్యోతిమభాజం పృథీనాభయద్వేషాభరాపసూరి చోదయ రాధో గృహతే మాఘోని అస్తే శ్రేష్టేభిర్భానుభిర్విభాష్యుషో దేవి ప్రతిరంతీరాజోః ఇషం చో దధతి విశ్వభాదేవోమస్వాభద్రవతాస్మాధారయ మృష్ణం బృహంతం యూజం పాత స్వస్తి భిస్తాన ఉషో అర్వాచాభ్యం వక్షి ప్రతీషీమగ్నిర్జరే సమిద్ధ ప్రతిభిప్రాసో మతిభిర్గృణంతా ఉషాయా దిజ్యోతిషాపాధమానా విశ్వాదేవీ ఏతాభూత్యా ప్రత్యాదృశ్వం పురస్తాజ్యోతిర్యచ్చంతి ఋషో విభాతి అజీయన్ సూర్యం యజ్ఞమగ్నిమాచీనం తమో అగాధజుష్టం అసే దిగోదూహితమోజీ విశ్వే పశ్యన్ దృఢం విభాతి ఆస్థాదృఢం స్వసయా యుజ్యమానమాయమస్తాదస్సుయుజో వహంతి ప్రతిద్వాద్యసుమనసో బృహంతాస్మాకాసో భగవానో భయం చ ఇల్విలాయధ్వమృషసో విభాతీర్యూయం పాత స్వస్తిభిస్తదానః యూషావపత్యా ఆజనానాం ప్రత్యక్షిర్మానుషీర్బోధయంతి సంద్రగ్భిరక్షభిర్భానుమశ్రేద్విసోర్జోరోదసీచక్షసావః ేష్మయుక్తృతోయంతేకాభస్తమావర్తయ్యోతిర్యచ్చి సవితేవ బాహూ అభూజుషా ఇంద్రతమాభోన్యజీరణి దివో దేవీ దూహితీరస్తమాసుకృతేవసూని రాధో అస్మభ్యం రాస్వరాభస్తోద్రభ్యోరదోగ్రహ్వాషభస్ారేణిర్లసోద్రేరౌర్ణో దేవం దేవం రాధసే చోదయస్మద్రక్సూనృతా జీరయంతి యుచ్చీన సనజేధిోధారూజం పాత స్వస్తిభిస్తదాన ప్రతిష్టోమేభిర్వృతం వసిష్ఠాగీర్భిర్విప్రాసప్తసమాబుధ్రన్ విమర్తయంతీవ్రజసీ సమంతే ఆవిష్కృణ్వలీ భువనాని విశ్వా ేనాశ్చర్దానాగూడ్వీతమోజ్యోతిషోషా బోధి అగ్రేషిరక్రాజాచీకిత్సూర్యమగ్ని అశ్వావతీర్గోమాతీర్నపురాశో వీరవతీ సదముచ్చు భద్రా ఘతం దురాశ్వత ప్రపీతారూజం పాత స్వస్తిభిస్తాన భద్రం నో అపి వాదయమనా హరిః ఓం ప్రత్యోదర్శ్యాయత్యోచ్చంతే దుహితా దివః అభోమహిజయక్షోతిష్కృణోతి సూరీ ఉదశ్రయా సృజతే సూర్యస్తాం నక్షత్రమజ్జివత్ తవేదోషోభ్యభి సూర్యస్ సంభక్తేనాగమేమహి ప్రతిపాదుషితర్దిపముషో దీరా భుస్మహి యావహసి పురస్పాఘం వనన్వదిలద్వన్నదాసుషేమయాః ఉచ్చందీయా కృణోషి మంగళామహి ప్రక్షేయే విశ్వదృశే అస్యాస్తేరత్రభాజ జీవనే భజనం శ్యామ మాతుర్న సూనవాః తచ్చేత్రం రాధాభరోషో యద్దీర్ఘశ్రుత్తమం యత్తే జివో దిహితర్మర్తభోజనం తద్రాస్వభురగామహై స్రవసూరిభ్యో అమృతం వరత్వరం వాజాస్మభ్యం గోమరః చోదయిత్రీ మఘోనస్సూరుదాజుషావృచ్చరవశ్రియాః ఇంద్రావరుణాయువమధ్వరాయ నోభిషేజనాయమహి శర్మ యచ్చరం దీర్ఘప్రాయజ్యుమోపనుష్యతి వయం జాయమృతనాసుదూఢ్యాః సమ్రాణ్యస్వరాణ్య ఉచ్చదేవా మహాంతావింద్రావరుణా మహావాసు విశ్వే దేవాలో అన్వాం ఖాన్యోజసా సూర్యమైరగరం దివి ప్రభుం ఇంద్రావరుణామదే అశ్వాలిబిన్వరమభిన్వదంధియా యువా విద్యుత్సమృతనా సుగంధాయో యువాం క్షేమస్య ప్రసవే విరగ్రవః ఈశానామస్మ ఉభయస్య కారవరుణాసురవాహవామహే ఇంద్రామరుణాయమాయే మహేశుల్కాయమరుణశనత్విమోజోమిమాతేభవశయస్వం అజామి మన్యశ్వధయన్ తమాదీరద్దభ్రేభిరణ్యప్రవేణోతి భూజసః న తమం వో నదోరితాధిపద్దయమిందావరుణా నతపః కుతశ్చన యస్య దేవా గచ్ఛథో భీతో అధ్వరం నతం వర్తశ్చ నదతే పరిహృదిః అర్వాంగలాదీవ్యేనావసాగతం శృణుతమం యది వేదిదోషతః యువోర్హితఖ్యముదవాజాప్యం మాదీకమింద్రావరుణాని యచ్చరం అస్మాకమింద్రావరుణా భరే భరే పురోజోధా భవతం వృష్ట్యోజసా యద్భాంగవంతముభయే అధ స్మృతిరస్తోకశరణయస్య సాదిషు అస్మేంద్రో వరుణో మిత్రోర్జమాభ్యుమ్నం గచ్ఛంతు మహిధర్మ సప్రసాః అభద్రం జ్యోతిరీతేరుతారుధో దేవస్య శ్లోకం సవితుర్మనామహే యుగాన్నరాపశ్యమానాథాప్యం రాజారవ్యంతః పృథుపర్షవోయోః హతమార్యాణి సుదామింద్రావరుణావతం समयम् ते जनद्वजो यस्मिन् नागा भव जनप्रियम् यत्राभयम् ते भुवना स्वदृशस्तत्रालिङ्गावरुणाधिमोचनम् सम्भूम्या अन्ताध्वजिराधृक्षतेन्द्रावरुणाधिविघोष आरोहते अस्तर्जनानामुपमामरादयोर्वागवसाहवनश्रुतागमम् इन्द्रावरुणाधनाभिरप्रतिभेदम् वन्वन्दात्मसुदासमावतम् ब्रह्माण्येकाम् शृणुतम् कवीमणि सत्यादृत्सू नाम भवत्पुरोहीतिः इन्द्रावरुणाभ्यातपन्दिमाघान्यो वरुढापरादयः युवम् किमस्व उभयस्य राजदोघस्मानोपतम् पार्ये दिवि युवाङ्गवन्त उभयादशिष्मिनम् चमस्वोपरूनम् च साधये यत्र राजाभिर्दशभिर्निबाधितम् प्रसुदा समावतम् कृत्सुभिः सह दश राजानः समीता अयज्जवस्तुदा समिन्द्रावरुणानयूयुधो सत्यानृणामत्मसदामुपस्तुतिर्देवाजे राम भवन्ते बहूरिषु दासराज्ञे परियक्ताय विश्वतः सुदासामिन्द्रावरुणामशिक्षरम् श्रीत्यम् च यत्र नमासाकपद्भिनो धिया धीमन्तो असपन्तदृत्सवः वृत्तान्यः स विधेषु जिघ्नते व्रतान्यो अभिरक्षते सदा कवामेवामृणासु भक्तिभिरस्मेन्द्रावरुणा शर्मा यच्छरम् अस्मेन्द्रो वरुणो मित्रो अर्जमाद्युम्नम् यच्छन्तु महि शर्म सप्रथाः अभद्रम् ज्योतिरजीतेऽवृतावृतो देवस्य श्लोकम् सभितुर्मणामहे आवाम् राजानामध्वरेव हृद्याभिरिन्द्रावरुणानमोभिः प्रवाम् घृतादीवाक्वोदानामहित्मनाविषूरूपादिगाति युवो राष्ट्रम् गृहलिन्दौर्यौ सेतुः परिणो हेणो वरुणस्य विद्या वरुणमिन्द्रः कृणवदु लोकम् कृतम् नो यज्ञम् विदधे सुचारुम् कृतम् ब्रह्माणि सूर्यः प्रशस्ता उभो रयद्देवजूतो नये प्रणस्पार्याभिरूतिभिस्तिरेतम् अस्येन्द्रावरुणा विश्ववारम् रयम् धत्तम् वसुमन्त्रम्बुरुक्षम् प्रजाहारित्योदयदेवसूनि अयमिन्द्रम् वरुणमष्टमेके प्रावत्तोकेतनजेतू जाना सुरत्नासो देवी लिङ्गमेव यूयम् पात स्वस्तिभिः सदा नः ीन्द्रामन्नरुष्टतामधीये स्वर्धम् देवाभूते बहूजे आत्मजेषु ध्वजेषु दिव्यमः पदम् युवन्तान्निन्द्रावरुणा पवित्रान् भरम्बराजः सर्वाभिषूजः आपश्चिद्भिः स्वयसदस्वदस्तु देवीरिन्द्रम् वरुणम् देवराधु कृष्टीरण्यो धारजधि प्रवित्ता वृत्राण्यो अप्रतिनीहन्ति स सुक्रतर्विदजिलसुहोताज आदित्यसवसा वाम् नमः स्वान् आववर्तदवासेवाम् कविष्मानसहितराज प्रयस्मान् इयमिन्द्रम् वरुणमष्टमेधी प्रावत्लोकेतनजेतू जाना सुरत्रासो देववी लिङ्गमेव यूयम् पात स्वस्तिभिः सदा नः धीरात्मस्तराजनोम् शिवियस्तस्तम् भरोदसीति दुर्वी प्रागामृष्पन्नोते बृहन्तम् विदा नक्षत्रम् पप्रतच्च भूम उदस्वयान्वान्वा कदान्वा अन्तर्वरुणे भुवानि किम् मे हव्यमरे नानो कदामेकम् सुमना अभिख्यम् निच्छेदेनो वरुणधिदृक्षूपो ये विदुषो विवृच्छम् समानमिन्मे कालशिलाभयम् फलोभ्याम् वरो नो गृणीते किमाग आदवरुणज्येष्ठम् यत्सोदानन्दिघान्तधिदघायम् रतम् मे वोचो दुर्लभस्वधावो वत्त्वा मेना नमसा तुरजीया अवद्रुभ्राणि विद्याशयानो भया भयम् च कृमा तनुधीः अवराजन्पशुर्भन्नतायम् सृजा भत्सन्नताम् नोपसिष्ठम् न सस्वो रक्षो वर्णर्भिभीत गो अचित्तिः अस्तिज्याजान्करीयसौ भारे स्वप्नस्तने तस्य प्रयोता अरम् दासो न मीरुहे करान्यहम् देवा जभो नयेनागाः अचेतयदचितो देवो अर्योगत्सम् राजे कवितरोजुनाति अयम् सुदुभ्यम् वर्णस्वधामो हृदस्तो उपसृतस्थितस्तु सन्नाक्षे मे सुयोगे नोऽस्तु यूयम् पात स्वस्तिभिः सदा नः रदर्थो वरुणः सूर्याजप्राणाम् दिशमुद्रिया नदीनाम् सर्गो न सृष्टो अर्वधीर्णदायम् चकार बहिरवनीरभ्यः आत्मा देवादोरजानादीनोत्पसन्नभोदनिर्वशेषभान् अन्तर्महीरोदसीमे विश्वा ते धामवरुणप्रियाणि तदिष्टसो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके ऋतावानः कवयो यज्ञधीराः प्रचेतसो नयम् तमन्म उपाच मे परो नो मे धीरा यत्रिस्तप्तनामाज्ञा बिभर्ति विद्वान्पदस्य गुह्यानवोचद्युगायभिप्रभुपराय शिक्षम् तिस्रोद्या बोलीता अन्तरस्मिन् तिस्रो भूमिराष्ट्रद्विधानाः कृतो राजावरुणश्चक्रजेनम् दिविप्रेङ्खम् हिरण्यम् सुभेदम् अवसिन्धम् वरुणोद्यौरीवस्थाद्रतो न श्वेतो मृगस्तु विष्माल गम्भीरसम् सौरजसो विमानस्वभारक्षत्रस्वरो असराजा यो मृणयादिकृषे जानो वयम् स्यावरुणे अनागाः अनुव्रतान्यदीतेर्गृहन्तो यूयम् पात स्वस्तिभिः सदाः प्रसुन्ध्यवाम् वरुणाय प्रेष्ठामृङ्गीरुषे भगस्व यदी वर्वाङ्कर देयरत्नम् सहस्रामृणम् बृहन्तम् अधान्मस्य सन्दृहम् जगन्वानग्नेरणीकम् वरुणस्य मुंसि स्मन्नधिपाहु अन्धोऽभिभाववर्धृशये नीयात् आयद्रुगाभवरुणश्च नामृयत्स मुद्रवीरया भवध्यम् अधियदपांश्वभिश्चराभवप्रेखयीङ्खयावहैभेदम् वसिष्ठम् भवरो नो नाव्याधादृशिम् जगारस्वभावोभिः श्रोतारम् विप्रस्तुतिगणपे अह्नाम् चान्नुद्यावस्तरन्यानुषाः वा अत्यानि नौ सख्या बभूभस्वजावहेजपुराचीत् निहन्तम् बाणम् वरुणस्वधाव सहस्रद्वारम् जगमा गृहन्ते ृणवत्सघाते मादयेन स्वनन्दो दक्षिणभुवे मयन्द्रेष्वामिप्रस्तु वदेव भूतम् ध्रुवासु क्षीरक्षयम् भोव्या अस्मत्पाशमुरु नो मोचत् अभोवन्वारादीते रूपस्थाद्यूयम् पाद स्वस्ति विश्वदानः भोषुवर्णमृण्मयम् गृहम् राजन्नहङ्गमम् मृगासुक्षत्रमृणय तिरेमि प्रस्फुरणीवर्णध्मातो अद्रिवः मृगासुक्षत्रमृणय यत्र समवदीनरा प्रदीपम् जगमासु ते मृगासुक्षत्रमृणय आम् मध्ये दस्तिवाम् सम्पृष्णाविदज्जरितारम् मृगासुक्षत्रमृणय यत्किञ्चेदम् वरुणदैवेदनेऽभिद्रोहम् मनुष्यामसि अतिदीयत्तव धर्मायो विभवमानसादेन सो देवदीरिणः ीरजासुजायोदत्रिरेवामध्यर्यभिर्मधूमन्दस्तुदासाः बलवायोनो याह्यच्छापिबाधस्यान्धसोदाय ईशानाय प्रभूतिम्यसा रक्षुचिम् सोमम् श्रीमास्तुभ्यम् वायो कृणोषितम् वर्त्येषु प्रशस्तम् जातो जातो जायते भाज्यस्य रायेन यज्ञदूरोदीमे राजे देवी धिषणाधादिदेवम् अध वायुम् नियुतस्वस्य तस्वाश्वेतम् वसुधिरिम् निरेके उच्छन्नृतस्विनाभिप्रावृज्योतिर्विदुर्दीध्यानाः ्रतिवस्वस्रुरापाः एतदनेन युक्ता सक्रतूनावहन्ति इन्द्रवायुवीरवाहम् रथम् वामीशानयोरभिवृक्षस्वजन्ते ईशानासोये दधते स्वम् भोगोभिरस्वेभिर्वसुभिर्हिरण्यैः इन्द्रवायुसूरयो विश्वमायुरर्वद्भिर्वीरैः स्मृदनासुतस्युः अर्वन्तोनस्रवसोभिक्षमाणा इन्द्रवायुसुष्ठुभिर्वसुष्ठाः आदयन्तस्वदेहुवेमयुगमानस्वस्तिभिस्तदानः ूर्येणूतानतभाज गोपामासश्च बाधस्वरदश पूर्वीः इन्द्रवायोरुष्टुर्वाव्यानामाद्भिकमेष्टेषुमिदम् जीवो अन्नाङ्गयुधस्तु मेधा श्वेतस्येनक्तियतामभिश्रीः हे वायवे समानसो विदस्थर्विश्वेम् नरस्वपत्यानि चक्रुः यावत्तरस्तन्वो यावदो जो यावन्नरश्चक्षधारीध्यानाः शुचिम् सोमम् शुचिपापादमस्मे इन्द्रवायु सदम् बर्हिरेदम् नियुवानानियुतस्पार्गवीरा इन्द्रवायु सरथम् जातपर्वाक् इदम् विभा प्रभेदम् मध्वो अग्रवध प्रेराणा विभो मुक्तमस्मे याम् सदम् नियुतो या सहस्रमिन्द्रवायु विश्वराश्रम् ते आभिर्यातम् सुविदत्राभिरर्वात् पादम् न रा प्रतिभृतस्य मध्वाः अर्णम् दोनश्रवासो भिक्षमाणायुन्द्रवायो सक्षुर्वसिष्ठाः वादयम् दस्वदे हुवेम यूयम् पात स्वस्तिभिः सदा नः आवायो भूषद्विपानसहस्रम् ते गीतो विश्ववार उपो दे अन्धो पद्यमयाभियस्य देवदधिरे पूर्वपेयम् प्रसोताधीरोध्वरेष्वस्तात् स्वमिन्द्राय वाजभेऽपि बध्यै प्रयद्वाम् मध्वो अग्र्यम् भरम् यद्भर्यभो देवयम् कस्वजीभिः प्रजाभिर्यासीदा स्वाम् समर्था निजिद्भिर्वाजभिष्टदे दुरो मे इन्द्रोदयम् सुभोज संयमस्वनिगीरङ्गव्यमस्वयम् च राधाः देवायव इन्द्रमादनासा देवासो निरोदनासो अर्यः हन्तो वृत्राणि सूरिभिश्चामदा सह्वां सो युधानृभिरमिन्द्रान् आनो निर्भिः सदनीभिरध्वरम् सहस्रिणीभिरुपयाहि यज्ञम् आयो अस्मिन् समने मादयस्व यूयम् पादस्वस्तिभिः सदा नः सृजिनस्तोमन्नवजातमध्येन्द्राग्निवृत्रहणयुषेधाम् उभायाम् सुखवाजो हवीमितावाजम् सद्यभूषते ज्येष्ठा दासानसीतवसा नाहि भूतम् सा कमृधासवसासु सुभांसा क्षयम् तौ रायो यवसस्य भूतेः कृन्दम् वाजस्य स्थवीरस्य कृष्वेः उपो हयद्विदधनम् वाजिनो गुर्धिभिर्विप्राप्रमदिमिच्छमानाः अर्वम् तोनराष्ठाम् न क्षमाणा इन्द्राग्नीजो हुवतो नरस्ते येभ्यर्वप्रमजिमिच्छमान ईष्टेरयम् यशसम् पूर्वभाजम् इन्द्राग्ने वृत्रहणा सुभद्रा प्रणो नव्येभिश्चिरतम् देष्णैः संयन्महेमि धनी स्पर्धमानेन मोदुजासूरसातायते अदेवयम् विदधे देवयुभिः सरत्राहतम् सोमसुताजनेन इमा मृदुसोमसुतिमुपनयेन्द्राग्निसौ मनसाय जातम् नो सिद्धि पारिमम् नाथे अस्मानाभाम् सस्वद्भिर्ववृतीयवाजैः सो अग्नये नमसा समिद्वोच्छाभित्रम् वरो रविन्द्रम् वोजेः यत्सीमाकश्च कृमा तत्सुमृगतदर्यमादीति शिश्रसन्तु एताग्नाशुधाना स युष्टीर्युवोत्सदाभ्यस्यामवादाने नेन्द्रो नो विष्णुर्मरुदः परिख्यम् यूयम् वातस्वस्तिभिस्तदानः सुजियम् वामस्य मन्वानयिन्द्राग्ने पूर्यस्तुतिः अभ्राद्दृष्टिरीवाजिनि सुहृतम् च ऋतुर्हवमिन्द्राग्नेवनादम् धियाः ईशानाविष्टतम् धियाः पद्मायनो नरेन्द्राग्नेमाभिषस्तये मानोरीरथतम् दिले इन्द्रे अग्नानमो बृहत्सु व्यक्तिमेरयामहे धियाधेनाः अवश्यवाः ैरतयित्थाभिप्रासभूतये सपाधो वाजसातये ताङ्गेर्भिर्विपन्यवप्रयस्वन्तो हवामहे मेधसा दासनिश्वः इन्द्राग्ने अवसागतमस्मभ्यम् दर्शणी सह मानो दुःसंसीषत नागस्य नो अरारुणोधोर्तिः प्रणङ्मत्यस्य इन्द्राग्ने सर्म यच्छतम् ಸ್ವಬದ್ಧಿರಣ್ಯಭದ್ವಸುಜದ್ವಾಮಸ್ವಾಪದೀಮಹೆ ಇಂದ್ರಾದ್ಧೀತದ್ವಾರೇಮಹಿ ಯತ್ಸ್ವಾಸುರೇಣರ ಇಂದ್ರಾಗ್ನೀಯಜೋಹವುಃ ಸಪ್ತೀವಂದಾಸಪರ್ಯವಾಹ ಮುಕ್ತೇಭಿರ್ವೃತ್ರಹಂತರಮಾಜಾಮಂದಾನಾಚಿತಾ ಗಿರಾ ಆಂಗೂಹೈರಾವಿವಾಸದಃ ಸಾವಿದ್ವಸ್ಸಂ ಸಂವರ್ಧಂ ದುರ್ವಿದ್ವಾಂಸಂ ರಕ್ಷಸ್ವಿನಂ ಆರೋಗಂ ಹನ್ಮನಾಹತಮು ದಧಿಂ ಹನ್ಮನಾಹತಮ್.